सर्वेभ्यो नमो नमः। अयं कश्चन विनूतनः पाठ्यक्रमः अस्माभिः अद्य आरब्धः अस्ति, अष्टाध्यायी लघुपरिचयः इति। मासत्रयात्मकः अयं पाठ्यक्रमः। तत्र आदौ भारतीया संस्कृतिः काचिदस्ति, तत्र वयं मङ्गलमाचरामः। सर्वस्यापि कार्यक्रमस्य अथवा अध्ययनस्य आरम्भे किञ्चिदिव मङ्गलं कुर्मः। तत्र मङ्गलस्य आदिः एवमस्ति, व्याकरणे वयं मङ्गलरूपेण पाणिनेः स्मरणं कुर्मः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धोता गिरः पुंसां विमलैः शब्दवारिभिः समस्याज्ञानजं भिन्नं तस्मै पाणिनये नमः। इत्येवं द्वाभ्यां श्लोकाभ्याम् अस्माभिः मङ्गलं क्रियते। मङ्गलस्य करणस्य कारणं तावत् मङ्गलेन निर्विघ्नपरिमाप्तिः भूयात् इत्याशास्यते। अध्ययनस्य मध्ये मार्गं विघ्नाः मा भवन्तु, सुखेन अध्ययनं भवतु, वयं मङ्गलं प्राप्नुमः, उत्तमं स्थानञ्च प्राप्नुमः अध्ययनेन। इत्येतदर्थं मङ्गलं क्रियते। तत्र सर्वादौ पाणिनेः मङ्गलरूपेण अयं पाणिनेः स्मरणरूपात्मकं मङ्गलमिदं। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः इति। अत्र काचित् कथा अस्माभिः श्रूयते। पाणिनिः इति कश्चित् महान् मूर्खः आसीत् इति। स च कदाचित् ज्ञानप्राप्त्यर्थं कश्चित् गुरोः आश्रमं गतवान्, तत्र च अध्ययनम् आरब्धवान् इति। आसन् तत्र बहवो हि शिष्याः तस्य गुरोः, अयं तत्र अन्यतमः आसीत्। गुरुणा बहुधा यत्ने कृतेऽपि अस्य ज्ञानं तावदेव अतिष्ठत् इति गुरोः मनसि कदाचित् महान् खेदः समुत्पन्नः। तत्र हि कदाचित् गुरुणा अस्य बुद्धिमान्द्यं विलोक्य कुतः अस्य कृते साधनं कर्तव्यम् इत्यादि चिन्तितम्। ततः कदाचित् गुरुः स्व अन्यान् शिष्यान् ये च बुद्धिमन्तः आसन् तान् सर्वान् तपस्यानिमित्तं तपः आचरितुं पर्वतश्रेणीं प्रेषितवान्। सर्वे तत्र अहम् एनमपि प्रेषितवन्तः पाणिनिः, तत्र पाणिनिमपि तेषां समीपं प्रेषितवन्तः सैस्तः। सर्वेपि बहु निष्ठया तपः आचरितवन्तः। तपसा बहूनां वर्षाणां तपसा तैः महेश्वरस्य अनुग्रहः सम्प्राप्तः। महेश्वरः स्वताण्डवनृत्येन सह डमरुं चतुर्दशवारं वादितवान् इति अस्माभिः श्रुतमेव। वादिने सति सनकादयः ये च गुरोः अन्ये शिष्याः आसन् ते चतुर्दशवारं यत् तैः वादः श्रुतः नादः श्रुतः तेन ते ब्रह्मज्ञानं प्राप्तवन्तः इति श्रूयते। तत्र अयं काशिक नन्दीकृतकाशिकायाम् अयं श्लोकः श्रूयते, वृत्तावसाने नटराजराजो धनादयुक्तां नवपञ्चवारम् उद्धर्तुकामधनकादिसिद्धान् एतद्विमर्शे सूत्रजालम् इति। शिवेन चतुर्दश सूत्राणि डमरुनादेन दत्तानि, सनकादेन तैः सूत्रैः ब्रह्मज्ञानं प्राप्तवन् अयं च अक्षराणि प्राप्तवान्। ऐं रुल्लुक् रुल्लुक् ए ओम् ऐ औच् हयवरट् लण् ण्यामगणम् झभै घडघष् जबगडदश् खा फा छा ठा था जटसौ कपै शशध हल् इत्येतानि चतुर्दश माहेश्वराणि सूत्राणि, महेश्वरात् आगतानि इति माहेश्वराणि इति माहेश्वराणि सूत्राणि इत्यस्य अर्थः। अत्र पश्यन्तु भवद्भिः पुरतः यत् चित्रं दृश्यते, ऐवण्डुल्लुक् इत्यस्य चतुर्दश सूत्राणां चित्राणि दृश्यन्ते, तस्य कश्चन आकारः दृश्यते, स च आकारः डमरुवत् दृश्यते। यश्च डमरुः शिवेन वादितः तस्य स्वरूपम् एवमेव स्यात् इति काचित् ऊहापि कर्तुं शक्यते। अत्र ऐगुण् ऋजुक् इति उच्चारणं कर्तव्यम्। कैश्चित् उच्चारणं क्रियते ऋजुक् इति, वस्तुतः ऋ इत्येतत् लकार भुकारयोः संयोगः, न तु लु इति स्वरवर्णः यः अस्ति स च लृ इति उच्चार्यते, न तु लृ इति। लृ इति उच्चार्यते सति लकारस्य एवं हज्वर्णस्य ऋकारस्य उच्चारणं भवति। एक लकारः नाम व्यञ्जनं, व्यञ्जनवर्णं, व्यञ्जनं। ऋकारः स्वरवर्णः, अनयोः योजनेन कश्चन वर्णः उत्पद्यते लृ इति। अत्र यदस्ति लृ इति तत् सः स्वरवर्णः। इत्येवं चतुर्दश माहेश्वराणि सूत्राणि अत्र भवतां पुरस्तात् सन्ति। एतेषाम् अध्ययनमात्रेण बहूनि कार्याणि सिद्ध्यन्ति, यतः अष्टाध्यायी इत्ययं ग्रन्थः यः अस्ति, यस्य ग्रन्थः पाणिनिना प्रणीतः, अष्टौ अध्यायाः तस्मिन् विषये अग्रे मया वक्ष्यते, तस्मिन् ग्रन्थे एतेषां माहेश्वरसूत्राणां साहाय्येन बहूनि कार्याणि सम्पादितानि सन्ति। एतेषां माहेश्वरसूत्राणां वेदतुल्यत्वं वर्तते, तदुक्तं वर्तते महाभाष्ये। महाभाष्यमित्येतत् यः ग्रन्थविशेषः अस्ति, सः ग्रन्थः महाभाष्यकारेण भगवता पतञ्जलिना विरचितम्, भगवान् पतञ्जलिः। अयं त्रिमुनिव्याकरणम् इति या प्रसिद्धिः अस्ति तत्र तृतीयः मुनिः अयमेव भवति, महाभाष्यकारः इत्येव अस्य प्रसिद्धिः। यतोहि भाष्याणि तु बहूनि सन्ति, परन्तु महाभाष्यं तावत् एकमेव, तदिदमेव पतञ्जलिविरचितम्। तस्मिन् महाभाष्यग्रन्थे एतेषां माहेश्वरसूत्राणाम् उच्चारणेन मनुष्यः किं प्राप्तुमर्हति, किं च फलम् इत्यस्मिन् विषये एवमुच्यते, इदमक्षरच्छन्दो वर्णशः समनुक्रान्तम् यथा च ऊचुः ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, तं ऋषयो ब्राह्मणेभ्यः, संसर्विमम् अक्षरसमाम्नाय इत्यालक्षते। अक्षरसमाम्नायम् नाम अक्षरसमाम्नायम् नाम वेदः इत्यर्थः। அக்ஷரவேதா இத்யுச்யதே. அக்ஷரவேதஹ நாம ஐகுண்டுல்லுக் இத்யாதயஹ ஏதேஷாம் வேததுல்யத்வம் அஸ்தி இத்யர்த்தஃ. அக்ஷரசமானாயமிதி ஆகச்சதே இத்யனேன ஏதரவகம்யதே ஐகுண்டுல்லுக் இத்யாதி சதுர்தஷ சூத்ராணி யானி மகேஸ்வரேண தத்தானி தேஷாம் சூத்ராணாம் வேதத்துல்யத்வம் வர்த்ததே, வேதத்துவமேவ வர்த்ததே, அதஹ தேஷாம் உச்சாரணேன மகத்ஃபலம் அஸ்தி இத்யத்ர நாஸ்தி சந்தேஹஃ. உபயோக உச்சாரணம் போஜனோத்தரம் மனுஷ்யஸ்ய சரீரே சஸ்ய காதனானந்தரம் தஸ்ய சுத்தத்வம் யதஸ்தி சுத்ததா நஷ்யதி இதி கிருத்வா கதாசித் சுத்தத்யாஸ்ய உச்சாரணம் ந கர்த்தவ்யம் தர்மசாஸ்திரகாரா. புனஸ்ச அபரமபி கிஞ்சித் யதி ஆதுனிக ரீத்யா யதி வயம் பஷ்யாமஹ தர்ஹி போஜனோத்தரம் மனுஷ்யஸ்ய ஆலஸ்யம் சம்பத்யதே. ஆலஸ்யோத்தரம் மனுஷ்யஹ யதா உச்சாரணீயம் ததா உச்சாரணீயதஸ்ய சக்திஹ ந பவதி. உச்சாரணம்
அலங்காராதிகம் பிரதிமண்டிதமாக इतोपि यदि पुनश्चेत संशयाः भवन्ति हस्तम् उत्थापयन्तु हस्तस्यैव चिह्नं प्रदर्शयन्ति चेत् तेनापि अहं भवतां प्रश्नानाम् उत्तरं दातुं शक्नोमि। इत्येवम् अद्यतनकक्षा तु अत्रैव समाप्यते मया। विलम्बेन आरब्धम् इत्येतदर्थं क्षमां याचे। किञ्चित् कश्चन क्लेशः आसीत्, अग्रिम पर्याये एवं क्लेशाः न भविष्यन्ति इति प्रतिशृणोमि। अनेन एषा कक्षा परिसमाप्यते। मङ्गलं कुर्मः। येनाक्षरत्वां नायव दिव्य महेश्वराय रत्नं व्याकरणं प्रोक्तं तस्मै वाणिनये नमः। येन भवता गिरः पुंसां विमलैश्शब्दवारिधे समश्चाज्ञानजं भिन्नं तस्मै वाणिनये नमः। अग्रिमकक्षा एकादशे दिनाङ्के प्रातः सार्धपञ्चवादनतः सार्धषड्वादनपर्यन्तं भविष्यति। धन्यवादः।